आत्मबोधः तपो भिक्षीन पापानां शान्तानां वितरागिनां मुमुक्षूनाम् अपेक्षोऽयम् आत्मबोधो विधीयते. बोधोऽन्यसाधनेभ्यो हि साक्षान्मोक्षैकसाधनम् पाकस्य वह्निवत् ज्ञानम् विना मोक्षो न सिध्यति. अविरोधितया कर्म नाविद्यां विनिवर्तयेत्. विद्या विद्यां निहन्त्येव तेजस्तिमिरसङ्घवत्. अविच्छिन्न इवाज्ञानात् तन्नाशस्येति केवलः. स्वयं प्रकाशते ह्यात्मा मेघापायेंशिमानिव. अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्विनिर्मलं कृत्वा ज्ञानं स्वयं नश्येत् जलं कतकरेणुवत्. संसारस्वप्नतुल्यो हि रागद्वेषादिसङ्कुलः. स्वकाले सत्यवद्भाति प्रबोधे सत्यसम्भवेत्. तावत् सत्यं जगद्भाति शुक्तिकारजटं यथा यावन्न ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम्. उपादानेऽखिलाधारे जगन्ति परमेश्वरे सर्गस्थितिलयान्यान्ति बुद्बुदानीव वारिणि. सच्चरात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः व्यक्तयो विविदास् सर्वाः हाटके कथकादिवत्. यथाकाशो हृषीकेशः नानोपाधिगतो विभुः तद्भेदाधिभिन्नवद्भाति तन्नाशे केवलो भवेत्. नानोपाधिवशात् एव जातिनामाश्रमादयः आत्मन्यारोपितास्तोये रसवर्णादिभे. पञ्चीकृतमहाभूतसम्भवं कर्मसञ्चितं शरीरं सुखदुःखानां भोगायतनमुच्यते. पञ्चप्राणमनोबुद्धि दशेन्द्रियसमन्वितम् अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् अनाद्यविद्यानिर्वाच्या कारणोपाधिरुच्यते. उपाधितृतीयादन्यम् आत्मानम् अवधारये. पञ्चकोशादियोगेन तत्तन्मय इव स्थितः शुद्धात्मानीलवस्त्रादि योगेन स्फटिको यथा. बभुस्थूषादिभिक्कोशैः युक्तं युक्त्यवधाततः आत्मानम् आन्तरं शुद्धम् विविञ्चात्तण्डुलं यथा. सदा सर्वगतोऽप्यात्मा न सर्वत्रावभासते. बुधावेवावभासते स्वच्छेषु प्रतिबिम्बवत्. देहेन्द्रियमनोबुद्धिप्रकृतिर्भ्यो विलक्षणम् तद्वृत्तिसाक्षिणम् विद्यात् आत्मानम् राजवत्सदा.